सप्तमोऽध्यायः ध्यानम् ॐ ध्यायेयं रत्नपीठे सुककलपठितं शृण्वतीं श्यामलाङ्गीं न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीं कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां मातङ्गीं शङ्खपात्रां मधुर्मधुमदां चित्रकुद्भाशिभालाम् ॐ ऋषिरुवाच आज्ञप्तास्ति ततो दैत्याश्चण्डमुण्डपुरोगमाः चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ददृशुस्ते ततो देवीमिषद्धाशां निवस्थितां सिंहस्योपरि शैलेन्द्र शृङ्गे महति कञ्चने ते दृष्ट्वा तां समादातो मुद्यमं चक्रुरुद्यताः आकृष्टचापाशिधरास्तथान्ये तत्समीपगाः ततः कोपं चकारोच्चैरम्बिका तानडीं प्रति कूपेन चास्यावदनं मणिवर्णं वृत्तदा भ्रुकुटीकुटिलास्तस्या ललाटफलका द्रुतं कालीकरालवदना विनिष्क्रान्ता शिपाशिणी विचित्रखड्वाङ्गधरा नरमाला विभूषणा द्विपिचर्मपरिधाना शुष्कमांसातिभैरवा अतिविस्तारवदना जिह्वालनभीषणा निमग्ना रक्तनयना नादा पूरितदिमुखा सावेगेनाभिपतिता घायन्ति महासुरान् सैन्ये तत्र सुराणीनामभक्षयद् तद्बलम् पार्खणिग्राहाङ्कुशग्राह्योद्घण्टा समन्वितान् समादायकहस्तेन मुखे चिच्छेपवारणान् तथैव युद्धं तुर्गे रथं सारथिना सह निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् एकं जग्राहकेशेषु ग्रीवायामथ चापुरम् पादेन क्रम्य चावान्य मूर्षान्यमपोथयत् तैर्मुक्तानि च सहस्राणि महस्राणि तथा सुरैः मुखेन जग्राहरुषा दशनैर्मथितान्यपि बलीनां तद्बलं सर्वम् असुराणां दुरात्मनां ममर्दा भक्ष्यच्चान्यान्यान्यश्चाताडयत्तथा असीना निहिताः केचित् केचित् खड्वाङ्गताडिताः जगमुर्विनाशम् असुरा दन्ताग्राभ्यतास्तथा क्षणेन तद्बलं सर्वम् असुराणां निपातितम् दृष्ट्वा चण्डो विदुद्राव तां कालीमतिभीषणां सर्वरसैर्महाभीमैर्भीमाक्षिङ्क्तां महासुरः छादयामासचक्रैश्च मुण्डः क्षिप्तैः सहस्रशः तानि चक्राण्यनेकानि विष्माणानि तन्मुखं बभूर्यथार्कबिम्बाणि सुबहूनि घनोदरं ततो जाहाशातिरुषा भीमं भैरवनादिनी कालीकरालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला उत्थाय च महासिंहं देवी चण्डं धावत गृहीत्वा चासिगेशेषु शिरस्ते नासिनाच्छिनत् अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितं तमप्यपादयद् भूमौ सा खर्गाभितमुषा हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितं मुण्डं च सुमहावीर्यं दिशो भेदे भयातुरं शिरस्य चण्डस्य काली च गृहीत्वा मुण्डमेव च प्राह प्रचण्डट्टः स्वमिश्रमभ्यत्य चण्डिकां मया तवात्रोपहृतौ चण्डमुण्डो महापशु युधि यज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ऋषिरुवाच तावानीतौ ततो दृष्ट्वा चण्डमुण्डो महासुरो वाचिकालीं कल्याणी ललितं चण्डिका वचः यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॐ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये नाम सप्तमः ॐ तत्सत् अष्टमोऽध्यायः ध्यानम् ॐ अरुणां करुणातरङ्गिताक्षीं धृतपाशं कुशबाणचापहस्ताम् अणिमादिभिराब्दितं मयूखैरहमित्येव विभवये भवानीम्। ॐ ऋषिरुवाच चण्डे च निहिते दद्ये मुण्डे च विनिपातिते बहुलेषु च सैन्येषु छैते क्वसुरेश्वरः ततः कोपपराधीन चेताः शुम्भः प्रतापवान् उद्योगं सर्वसैन्यानां दैत्यानामादिदेशः अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः कम्बूनां चतुर्शीतिर्निर्यान्तुं स्वबलैर्वृताः कोटिवीर्याणि पञ्चाशद् सूराणां कुलानि वै शतं कुलानि धम्राणां निर्गच्छन्तु ममाज्ञया। कालकादौर्हृदा मौर्याः कालकीयास्तथा सुराः युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम। इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः
जगाम महासैन्यसहस्रैर्बहुभिर्वृतः
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् जास्वनः पूर्यामास धरणि गगनान्तरं ततः सिंहो महानादमतीव कृतवान् नृप घण्टास्वनेन तन्नादमं विकाचो बबृंहयत् धनुर्जा सिंहघण्टानां नादापूरितदिङ्मुखा निनादैर्भीषणैः काली जिज्ञे विस्तारिता नना। तं निनादमुपसृत्य दैत्यसैन्याश्चतुर्दिशं देवी सिंहस्तथा काली सरोसैः परिवारिताः एतस्मिन्नन्तरे भूपविनाशाय सुरद्विषाम् भवायामरसिंहानां मतिवीर्यबलान्विताः ब्रह्मे सगुः विष्णूनां तथेन्द्रस्य च शक्तयः शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः यस्य देवस्य यद्रूपं यथा भूषणवाहनम् तद्वदेभिः तच्छक्तिर्सुरान् युद्धुमाययौ हंसयुक्तविमानाग्रे साक्षात्सूत्रकमण्डलुः आयाता ब्रह्मणः शक्तिर्ब्रह्माणि साभिधीयते माहेश्वरी विशारूढा त्रिशूलवरधारिणी महाहिवलया प्राप्ता चन्द्ररेखा विभूषणा कौमारी शक्तिहस्ता च मयूरवरवाहना योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता शङ्खचक्रगदासार्ग खड्गहस्ताभ्युपाययौ यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः शक्तिः शाप्यायौ तत्र वाराहिं बिभ्रति तनुं नरसिंहि नृसिंहस्य बिभ्रति सदृशं वपुः प्राप्ता तत्र हटाक्षेपक्षिप्तनक्षत्रसंहति वज्रहस्तात्थैवेन्द्री गजराजोपरि स्थिता प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ततः परिवृतस्ताभिशानो देवशक्तिभिः हन्यन्तामसुराः शीघ्रं प्रत्याह चण्डिकां ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा चण्डिका शक्तिरत्तुग्रा शिवा शतनिनादिनी सा चाह धूमजटिलमीषाणं पराजिता दूतत्वं गच्छ भगवान् पार्श्वं शुम्भनिशुम्भयोः ब्रूहि शुम्भं निशुम्भं च दानवावति गर्वितो ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः यूयं प्रयात पातालं यदि जीवितुमिच्छथ बलावले पादथ चेत् भवन्तो युद्धकाङ्क्षिणः तदा गच्छत तृप्यन्तु मच्छीवाः पीशितेन वः यतो नियुक्तो दत्तेन तया देव्या शिवः स्वयं शिवदूतीति लोकेऽस्मिंस्ततः साक्षातिमागता तेऽपि श्रुत्वा वचो देव्याः सर्वाख्यातं महासुराः अमरखा पूरिता जगमुर्यत्र कात्यायनी स्थिता ततः प्रथममेवाग्रे सरसकृष्टिवृष्टिभिः बभर्क्रुद्धतामरखास्तां देवी ममडाडयः सा च तान् पहितान् वानाञ्छूलशक्तिपरश्वधान् चिच्छेदलीलयात्मात धनुर्मुक्तैर्महेक्षुभिः तस्याग्रतस्तथा काली शूलपातिविदारितान् खड्वाङ्गपोथितानश्चार्यं कुर्वति व्यचर्तदा कमण्डलुजलाक्षेप हत वीर्याण हतौजसः ब्रह्माणि चाकरो शत्रून् येन येन अस्मधावति माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी दत्यांज घन कौमारी तथा शक्त्याति कोपना ऐन्द्रिय कुलिश पाते न सत्सो दैत्य दानवाह
एतुर्विदारिता पृथिव्यां रुधि रोग प्रवर्खिणः तुंड प्राहार विध्वस्ता दंष्ट्राग्रच्छद वक्षसः वाराह मूर्त्या नपतनश्चक्रेण च विदारिताः नखैर्विदारितानश्चान्यान् भक्षयन्ति महासुरान् नारसिंही चाराजो नादा पूर्ण दिगंबरा चंडाट्टहासैर सुराः शिवदूत्यभिदूषिताः पेतुः पृथिव्यां पतितानस्तान् चखादात् सा तदा इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् दृष्टाभ्युपायैर्विभ्रैर्नरसुरदेवाडी सैनिकाः पलायन परान् दृष्ट्वा दैत्यान् मातृगणार्दितान् योधुमभ्याययो क्रुद्धो रक्तबीजो महासुरः
रक्तबिन्दुर्यदा भूमो पतत्यस्य शरीरतः समुत्पतति मेदिन्यान् तत्प्रमाणस्तदासुरः युधे सगदा पाणिरिन्द्रशक्त्या महासुरः ततश्चेन्द्रेषु वज्रेण रक्तबीजम् अताडयत् क्लेशेना हतस्यासु बहु सुस्राव शोणितम् समुतस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः
तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः
ते चापि युधुस्तत्र पुरुषारक्तसम्भवाः समुन्मात्रेभिरत्तुग्रशस्त्रपातादिभीषणम् पुनश्च वज्रपातेन क्षतमस्य शिरो यदा वबाह रक्तं पुरुषास्ततो जाताः सहस्रशः वैष्णवी शमरे चैनं चक्रेणाभिजघाणः गदया ताडयामास ऐन्द्रियतं सुरेश्वरं वैष्णवी चक्रभिन्नस्य रुधिरस्राव सम्भवहे सहस्रशो जगदव्याप्तं तत्प्रमाणैर्महासुरहे शक्त्यादक जघान कौमारी वाराही च तथाशिना माहेश्वरी त्रिशूलेन रक्तबीजं महासुरं स्वचापि गदया दैत्यः सर्वा एवाहनत् पृथक् मात्रे कोप समाविष्टो रक्तबीजो महासुरः तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि पपातयो वै रक्तो घस्तेनासंच्छतसोऽसुराः
तैश्चासुरा सृक्सम्भूतैर्शूरैः शकलं जगत्
व्यप्तमासीत् ततो देवा भयमाजग्मुरुत्तमं तान् विष्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु मक्षस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् रक्तबिन्दोः प्रतीक्षत्वं वक्तेणानेन वेगिना
भक्षयन्ति चरणे तदुत्पन्नान् महासुरान्
एवमेख छिङ् दैत्यः क्षीण रक्तो गमिष्यते भक्ष्यमाणास्त्वया चोग्रा नो चोत्पत्स्यन्ति चापरे इत्युक्त्वा तां ततो देवी शूलेनाभिजघनतं मुखेन काली जगृहे रक्तबीजस्य शोणितं ततो सा वाजघानाथ गदया तत्र चण्डिकां नो चास्या वेदनां चक्रे गदापातोल्पिकामपि तस्या हतस्य देहात्तु बहु शुश्राव शोणितं यतस्तस्तद्वक्त्रेण चामुण्डा सम्प्रतीक्षते मुखे समुद्गता यस्या रक्तपातान् महासुराः तानश्च खादाथ चामुण्डा पपोतस्य च शूणितम्
देवी शूलेन वज्रेण वानैरसिभिरिष्टिभिः
जघान रक्तबीजं तं चामुण्डा पीतशोणितं स्वपपात महीपृष्ठे शस्त्रसङ्गसमाहतः निरक्तश्च महीपाल रक्तबीजो महासुरः ततस्ते हर्षमतुलं वापुस्त्रिदशा नृप तेषां मातृगणो जातो ननर्ता श्रृङ्गमदुद्धतः ॐ श्रीमार्कुण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये नामाष्टमः ॐ तत्सत्
नवमोऽध्यायः ध्यानम् ॐ बन्धुककाञ्चननिभं रुचिराक्षमालां पासां कुशौ च वरदां निजबाहुदण्डे बिभ्राणमिन्दुसकलाभरणं त्रिनेत्रं मर्धाम्बिकेशमनिशं वपुराश्रयामि ॐ राजोवाच
विचित्रमिदमाख्यातं भगवन् भवता मम
देव्याश्चरितमाहात्म्यं रक्त बीज वधाश्रितम
भूयश्चेच्छाम्यहं श्रोतुं रक्त बीजे निपातिते
चकार शुंभो यत् कर्म निशुंभश्चाति कोपनः।
ऋषि रुवाच
चकार कोप मतुलम रक्त बीजे निपातिते शुंभासुरो निशुंभश्च हतखन्येषु चाहवे हन्यमानं महासैन्यं विलोक्या मर्कमुद्वहन् अभ्यधावन् निशुंभोऽथ मुख्यया सुरसेनया तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः सन्दष्टोष्टपुट्टाः क्रुद्धा हन्तुं देवीमुपाययुः। आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः निहन्तुं चण्डिकां कोपात् कृत्वा युद्धं तु मातृभिः। ततो युद्धमतीवासी देव्या शुम्भनिशुम्भयोः सर्वर्षमतीवोग्रं मेघयोरिव वर्षतोः चिच्छेदास्तानश्छरांस्ताभ्यां चण्डिका स्वसरोत्करैः ताड्यमाशचाङ्गेषु शस्त्रौघैर्सुरेश्वरौ निशुम्भो निशितं खर्गं चर्म चादाय सुप्रभम् अताडयन् मूर्धनि सिंहं देव्या वाहनमुत्तमं ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमं निशुम्भस्याशुचिच्छेद चर्म चाप्यष्टचन्द्रकं छिन्ने चर्माणि खड्गे च शक्तिं चिच्छेप सोऽसुरः तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागतां कोपाधमातोऽनुशुम्भोऽथ शूलं जग्राह दानवः आयातं मुष्टिपातेन देवी तच्चाप्य चूर्णयत् अविद्याथ गदां सोऽपि छिच्छेप चण्डिकां प्रति सापि देव्या त्रिशूलेन भिन्ना भस्म त्वमागता ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् आहत्य देवी बाणौघैर्पातयत भूतले तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे भ्रातर्यतीव संक्रुद्धः प्रयोहन्तुमम्बिकां स्वरथस्तथा तुच्चैर्गृहीत परमायुधैः भुजैरष्टाभिरत्तुल्यैर्व्याप्यासेषं बभू नभः तमायान्तं समालोक्य देवी शङ्खं वादयत् ज्या शब्दं चापि धनुश्चकारातीव दुःसहं पूरयामास ककुभो निजघण्टास्वनेन च समस्तदैत्यसैन्यानां तेजोवधविधायिना ततः सिंहो महानाद्यस्त्याजीतेभ महामदेः पूरयामास गगनं गां तथैव दिशो दश ततः काली समुत्पत्य गगनं क्षमां ताडयत् कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः अट्टाट्टहासं शिवं शिवदूती चकारः तैः शब्दैरसुरास्त्रेषुः शुम्भः कोपं परञ्ययो दूरात्मं तिष्ठ तिष्ठेति व्याजहारम्बिका यदा तदा जेत्यभेतं देवैराकाशसंस्थितैः शुम्भेनागत्य या शक्तिर्मुक्त्वा ज्वालातिभीषणा आयन्ति वह्निकूटाभा सा निरस्ता महुल्कया सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरं निर्घातनि स्वनोघोरो जितवान् वनीपते शुम्भमुक्ताञ्छरान् देवी शुम्भस्तत्प्रहिताञ्छरान् चिच्छेद स्वशरैरुग्रहे सत्सोऽथ सहस्रशः ततः सा चण्डिका क्रुद्धा शूलेनाभिजघानतं स्वतदाभिहतो भूमौ मूर्छितो निपपातः ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः आजघान शरैर्देवीं कालीं केसरिणं तथा पुनश्च कृत्वा बाहूनां युतं दनुजेश्वरः चक्रायुधेन दिदीजच्छादयामास चण्डिकां ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिणि चिच्छेद तानि चक्राणि स्वशरैः शायकांशतान् ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् अभ्यधावत् वैहन्तुं दैत्यसेना समावृतः तस्यापतत एवासु गदां चिच्छेद चण्डिका खर्गेन शीतधारेण स्वच शूलं समाददे शूलहस्तं समायान्तं निशुम्भं मरार्दणं हृदि बिव्याधशूलेन वेगा विद्धेन चंडिका भिन्नस्य तस्य शूलेन हृदया निःसृतो परः महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः शिरश्चिच्छेद खर्गेण ततो शावपतद् भुवि ततः सिंहश्चखादुग्रं दंष्टा छिन्नु शिरोधरान् असुरानस्तानस्तथा काली शिवदूती तथा परान् कौमारी शक्ति निर्भिन्ना के चिन्ने सुर महासुरा ब्रह्माणी मंत्रपूतेन तो ये नान्ये निराकृता माहेश्वरी त्रिशूलेन भिन्ना पेतुस्तथा परे वाराही तुंड घातेन केचे चूरणी कृता भुवि खंडं खंडं च चक्रेण वैष्णव्यादान वह कृता वज्रेण चैन्द्री हस्ताग्र विमुक्तेन तथा परे केचि द्विने सुरसुरा केचि नष्टा महावात् भक्षिताश्चा परे काली शिवदूती मृगाधिपहि ओम श्री मार्कण्डेय पुराणे सावर्णिके मन्वंतरे देवी महात्मे नाम नवमः ओम तत्सत। दशमोऽध्यायः ध्यानम् ओम उत्तप्त हेम रुचिरं रविचंद्रवाणीं नेत्रं धनुस्सरयुतं कुशपाशशूलं रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम् ॐ ऋषिरुवाच निशुम्भं निहितं दृष्ट्वा भ्रातरं प्राणसंमितं अन्यमानं बलं चैव शुम्भ क्रुद्धो ब्रवीद्वचः बलावले बादुष्टे त्वं मा दुर्गे गर्वमावह अन्यासां बलमाश्रित्य युध्यसे यातिमानिनि। देव्योवाच एकैवाहं जगत्यत्र द्वितीया का मम परा पश्यैता दुष्टमय्येव वेष्यन्तो मद्विभूतयः ततः समस्तास्ता देव्यो ब्रह्माणि प्रमुखालयं तस्या देव्यास्तनौ जग्मुरेकैवासी तदाम्बिका। देव्योवाच अहं विभूत्या बहुभिः रूपैर्यदा स्थिता तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव। ऋषिरुवाच ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः पश्यतां सर्वदेवानां असुराणां च दारुणं सर्वर्षहसितः शस्त्रैस्तथास्त्रैश्चैव दारुणैः तयोर्युद्धं भूद्भूयः सर्वलोकभयङ्करं दिव्यान्यस्राणि सत्सो मुमुचे यान्यथाम्बिका बभञ्जतानि दैत्येन्द्रस्तत्प्रतिघातकर्तृभिः मुक्तानि तेन चास्राणि दिव्यानि परमेश्वरी बभञ्जलीलयैव उग्रहङ्कारोच्चारणादिभिः ततः सरसतैर्देवीमाच्छादयत् स्वसुरः सापि तत्कुपिता देवी धनुश्चिच्छेदचेखुभिः छिन्ने धनुखी दैत्येन्द्रस्तथा शक्तिमथा ददे चिच्छेद देवी चक्रेण तमप्यस्य करे स्थितां ततः खड्गमुपादाय सतचन्द्रं च भानुमत् अभ्यधावत् तदा देवीं दैत्यानामधिपेश्वरः तस्यापतत एवासु खड्गं चिच्छेद चण्डिका धनुर्मुक्तैः शितैर्बाणैश्चर्मचार्ककरामलम् हतास्वः स तदा दैत्याश्चिन्न धन्वाविसारथिः जग्राहमुद्गरं घोरमम्बिका निधनुद्यतः चिच्छेदापतस्तस्य मुद्गरं निशितहि सरेहि तथापि शोभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् स्वमुष्टिं पातयामास हृदय दैत्यपुङ्गवः देव्यास्तं चापिशा देवी तलेनोरस्य ताडयत् तलप्रहाराभितो निपपात महीतले स्वदैत्यराजः सहसा पुनरेव तथोत्थितः उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः तत्रापिशा निराधारा युयुधे तेन चंडिका नियुद्धं खेतदा दैत्यश्चंडिका च परस्परं चक्रतुः प्रथमं सिद्ध मुनि विस्मयकारकं ततो नियुद्धं सुचिरं कृत्वा तेनां विकासः उत्पात्य भ्रामयामास चिक्षेप धरणीतले सक्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः अभ्यधावत् दुष्टात्मा चंडिका निधनेच्छया तमायान्तं ततो देवी सर्वदैत्यजनेश्वरं जगत्यां पातयामास भित्त्वा शूलेन वक्षसि सौगता शुभपपातोर्व्यां देवी शूलाग्रवीक्षतः चालयन् सकलां पृथिवीं शाब्दीद्वीपां सपर्वतां ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मणि जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः उत्पात मेघा शुल्काये प्रागा संस्ते समंग्ययुः सरितो मार्गवाहिन्यस्तथा संस्तत्र पातिते ततो देवगणाः सर्वे हर्घ निर्भर मनसाः बभूवुर्निर्हते तस्मिन् गन्धर्वाललितं जगुः अवादयंस्तथैवान्येन ऋतुश्चाप्सरोगणाः वभुः पुण्यास्तथा वाताः सुप्रभो बुद्धिवाकरः जज्वलुश्चाग्नयः शान्ताः शान्तादिग्जनितस्वनाः ॐ श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये नाम दशमः ॐ तत्सत्।